अथ नवनागनामस्तोत्रम् अनन्तं वासुकिं शेषं पद्मनाभञ्च कम्बलं शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा एतानि नवनामानि नागानाञ्च महात्मनां सायंकाले पठेन्नित्यं प्रातःकाले विशेषतः संतानं प्राप्यते नूनं संतानस्य च रक्षकः सर्वबाधा विनिर्मुक्तः सर्वत्र विजयी भवेत् सर्पदर्शनकाले वा पूजा काले च यः पठेत् तस्य विषभयन्नास्ति सर्वत्र विजयी भवेत् ॐ भुजङ्गेशाय विद्महे सर्पराजाय धीमहि तन्नो नागः प्रचोदयात् इति श्रीनवनागनामस्तोत्रं सम्पूर्णम्।